सदा सत्स्वरूपं चिदानंदकंदं जगत्संभवस्थान संहार हेतु स्वभक्तेच्छया मानुषं दर्शयन्तं नमामीश्वरं सद्गुरुं साईनाथं भवद्भ्रांत विध्वंस मार्तंडमिद्यं मनोवागतीतं मुनिर्ध्यानगम्यं जगद्व्यापकं निर्मलं निर्गुणं त्वां नमामीश्वरं सद्गुरुं साईनाथं बोधिमग्नार्दितानां जनानां स्वपादाश्रितानां स्वभक्तप्रियाणां समुद्धारणार्थं कलौ संभवन्तं नमामीश्वरं सद्गुरुं साईनाथं सदानिम्बवृक्षस्य मूलाधिवासात् सुधास्त्राविणं पिक्तमप्यप्रियन्तं तरुं कल्पवृक्षाधिकं साधयन्तं नमामीश्वरं सद्गुरुं साईनाथं सदा कल्पवृक्षस्य तस्याधिमूले भवद्भावबुद्ध्या सपर्यादिसेवं नृणां कुर्वतां भुक्तिमुक्तिप्रदन्तं नमामीश्वरं सद्गुरुं साईनाथं अनेकाश्रुतातर्कलीलाविलासै समविष्कृते सानभास्वत्प्रभावम् अहं भावहीनं प्रसन्नात्मभावं नमामीश्वरं सद्गुरुं साईनाथम् सतां विश्रमाराममेवाभिरामं सदा सज्जनैः संस्तुतं सन्नमद्भिः जनामोददं भक्तभद्रप्रदन्तं नमामीश्वरं सद्गुरुं साईनाथम् अजन्माद्यमेकं परब्रह्म साक्षात् स्वयं संभवं राममेवावतीर्णं भवद्दर्शनात् संपुनीतः प्रभोहं नमामीश्वरं सद्गुरुं साईनाथं